ॐ विष्णोर्नुकम् वीर्याय प्रवोचय्यः पार्थिवानि विभवे रजागुंसियो अस्कवायदुत्तरगुम् सदस्तम् विचक्रमाणस्त्रेधोरुगायः विष्णोरराटमसि विष्णो पृष्ठमसि विष्णोष्णप्त्रे स्व विष्णोश्चूरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभिपातो अस्याम् नरो यत्र देवयवो मदन्ति पुरुक्रमस्य स हि बन्धुरित्था विष्णो पदे परमे मध्व उत्सह प्रतद्विष्णुस्तव दे वीर्याय मृगो न भीमः कुचरो गिरिष्टाः यस्योरुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवावृधान न ते महित्वमल्मश्नुवन्ति उभे ते विद्मरजसे पृथिव्या विष्णोदेवत्वम् परमस्य वित्से विचक्रमे पृथिवीमेष एता क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य कीरयोजना सह उरुक्षितिगुम् सुजनिमाचकार त्रिर्देव पृथिवीमेष एता विचक्रमेश तच्च सम्महित्वा प्रविष्णुरस्तु तव सस्तवीयान् त्वेष गृह्यस्य स्थविरस्य नाम अतो देवा अवन्तु नो यथो विष्णुर्विचक्रमे पृथिव्या सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य वागुम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अधाभ्यः ततो धर्माणि धारयन् विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखा तद्विष्णोः परमम् पदगुम् सदा पश्यन्ति सूरयः विवेव चक्षुरातम् तद्विप्रासो विपन्यवो जाग्रुवागुम् सस्सविन्धते विष्णोर्यत्परमम् पदम् पर्यात्या अनन्तरायाय सर्वस्तोमोदिरात्रमुत्तममहर्भवति सर्वस्याप्त्यै सर्वस्य जिप्त्यै सर्वमेव तेनाप्नोति सर्वम् जयति।